मयूराधिरूढम् महावाक्यगूढम् मनोहारिदेहम् महच्चित्तगेहम् महीदेवदेवम् महावेदभावम् महादेवबालम् भजे लोकपालम्। कृतान्तस्य दूतेषु चण्डेषु कोपात् दहत् छिन्धिबिन्धीति मां तर्जयत्सु मयूरं समारुह्य मा भैरिति त्वम् पुरः शक्तिपाणिर् ममायाहि शीघ्रम्। अपस्मारकुष्ट क्षयार्सह प्रमेह ज्वरोन्मातगुल्मादि रोगामहान्तः पिशाचाश्च सर्वे भवत्पत्रभूतिम् विलोक्य क्षणात् तारकारे द्रवन्ते। जनित्री पिता च स्वपुत्रापराधम् सहेतेन किम् देवसेनाधिनाथ अहम् छाति बालो भवान् लोकतातः क्षमस्व अपराधम् समस्तम् महेश। भुजङ्गाख्यवृत्तेन क्लिप्तं स्तवं यः पठेद्भक्तियुक्तो गुहं संप्रणम्य सुपुत्रान् कळत्रं धनं दीर्घमायुः लभेत् स्कन्दसायुज्यम् अन्ते नरहासः।